ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातपतयानो रुद्रमृडया याते रुद्रशिवातनोरघोरापापकाशिनी तजानस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः या विशुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताङ्गुरुमाहि पुंसेः पुरुषम् जगत् शिवे न वचसा तागिरिशाच्छावदामसि यथा नः सर्वविद्जगदयक्ष्मगुम् सुमना असत् तद्यवाचदधि भक्ता प्रथमो दैव्योऽभिषक् अहेयश्च सर्वाञ्जम्भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुणभुत बभ्रस्व मङ्गलः ये चे मागुम् रुद्रा अभितो दिक्षुक्षिताः सहस्रशो वैशागुम् हेड एव हे असौ यो वसत्पथिनेनग्रेभो विलोहितः उतैनम् गोपा अदृशम् अदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृणयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय भीषुषे अथो ये अस्य सत्त्वादोहन्तेभ्यो कदम् नमः प्रमुञ्चधन्वनस्त्वमुभयोरात्मियोर्ज्याम् याश्च ते हस्त इषभः पदाता भगवो वप अवतद्यधनुस्त्वगुम् सहस्राक्षशते शुधे निषेर्य शल्याधाम् मुखा शिवोदः सुमनाभव विद्यन्धनुः कभर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्तेशव आभुदस्य निषङ्गतिः या ते हे धर्मे दुष्टमहस्ते बभूवते धनुः तजास्मान विश्वतस्त्वमयक्ष्मजापनिभुजा नमस्ते अस्त्वायुधाय नाततय धृष्णवे उभाभ्यामुतते नमो मागुभ्याम् तपधन्वने परिते धन्वनो हेतिरस्मान्मृणत्तु विश्वतः अथो य इषुधिस्तपाले अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः।